Okay, and let me share my screen as well. Okay, so everybody able to see my screen? Okay, Mahoday. So looks like you are able to see my screen. So we'll get started. We'll start with our prayer, and then we'll get into the lessons. We'll also see what homework we were discussing last week, and then we'll get from there, and then get on to the next lesson. So we'll begin with our prayer. Om Sahana Vavatu Sahanau Bhunaktu Sahaviryam Karavavahai Tejasvinavadhitamastu Mavit Vishavahai. Om Shanti Shanti Shanti. Om Guru Bhyo Namah. So we will get started, and right now we will first revise some of the things that we have learned so far. So we will start with Suchitra Bhagini. Suchitra Bhagini, are you available? Suchitra Bhagini, can you please unmute yourself if you are available? Okay, looks like Suchitra Bhagini's voice is not available. Pramila Bhagini, are you available?
Yes, sir. Hello? 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 Hello?
We can hear you.
Okay.
What about sir?
Can you see the screen, Bhagini?
Yes, sir. Saha kaha? Saha vidyuddipaha? Am I audible? Hello?
We can hear you.
Ma'am, you are audible.
Anybody, everybody able to hear my voice?
Yes, sir.
Yes, sir.
Yes, sir. Yes, sir. Yes,
sir. We can hear you, sir.
We could hear you, but we believe that you cannot hear us.
Can you hear us?
I'm not able to
hear.
Yeah, I'm here. I can hear.
No, Mahoday, okay. Can you hear us?
Let me check once. Check the audio setting.
Have you ever noticed how some people just
Okay, looks like audio is fine, but why am I not able to hear your voice here? Pramila Bhagi, can you speak again?
Can you hear us?
Yes, sir. Yes, sir.
No, no, no. Mahodaya.
Can you hear us, sir?
We are all
online. Hello. Can you hear us?
I'm not able to hear anybody's voice, sir. One thing. Let me log in again. Please wait, everybody. Not able to hear anybody's voice. No, Bhagini, Anita Bhagini, I'm not able to hear your voice also. Nobody's voice I'm able to hear.
Hey, if you're talking, can you just please go on mute? Recorded in the video. Can anybody hear my voice?
Yes, sir.
Yes, sir.
But no, I'm not able to hear your voice. Okay, let's then get started otherwise. Alright, so what we'll do now is we will try to use chat as much as possible for today because looks like the audio is not really getting recorded. So would request everybody to use the chat window and post their answers. Okay, so that is how we will do today. If anybody is able to speak and if others are able to listen, for example, if Premila Bhagini is speaking now, and if others are able to listen except me, then that should be fine. We will go ahead in that mode. Is it okay with everybody? Because that is the way we can actually at least learn while others are saying. If I'm not able to listen, for today, we... Premila Bhagini, are you there? Please, if your voice is audible to others, they will ping it in the chat, and we will know that your voice is audible. For me, I'm not able to hear your voice, so please, looks like if they are able to hear your voice, then please answer these questions that we have here. So first one, okay, Indra Bhagini and others are able to hear your voice, Premila Bhagini. So request you to start with this. What is the first one?
Saha kaha, saha vidyut deepaha. Is that okay with everybody?
Okay,
other?
Everybody heard it. Can you please agree with it so that we know everybody is also on the same line?
Correct.
Okay, Sujitra Bhagini says yes. Okay, that is Saha Vidyut Deepaha. And what is the next one?
Sanskri. Saha Kaha.
Premila Bhagini, you will be doing it for five times,
okay.
And then you can mute yourself. So first one is over. Second one is also
over. Okay.
Okay. Looks like there is a lot of background noise. So give me a minute to hear anybody's voice today for some reason. So Pila Bhagini is doing it for the second case. Is it correct, everybody? Saha Marja Raha.
Yes.
Okay. Third one. Premila Bhagini. So except Premila Bhagini, others please be unmute. Can't hear Premila Bhagini. Premila Bhagini, are you there, Bhagini?
Now? I think now she can hear me. Saha kaha, saha phenakam.
Okay, so Premila Bhagini, this is saha phenakam. This is saha phenakam.
Phenakam.
Okay, next one, Bhagini.
एषः कः एषः सैनिकः
ओके दिस् इस् आल्सो करेक्ट् एषः सैनिकः एषः सैनिकः इफ् इट् इस् एण्डिङ्ग् इन् अम् दिस् देर् इस् एन् एक्सेप्शन् एस् प्रियाराम भगिनी सेड् this would not be Saha, this would be
tat phenakam. You are right, Priya Bhagini. This will not be saha. This would be tat phenakam. This would be tat phenakam. This is not saha. My mistake. Yeah. This is tat. This would be tat phenakam. This would be tat phenakam. This is am. And this is the napunsaka lingam. So this would be tat phenakam. Tat phenakam.
Okay,
and this would be eshah sainikah. Eshah sainikah. Okay. This is akaranta pumlinga shabdah. This is eshah sainikah. Eshah sainikah. What would this be, Pramila Bhagini?
Ikaranta sreelinga shabdah.
Yes, so this is ikaranta sreelinga shabdah. Ikaranta sreelinga shabdah. This is esha suchi. Esha suchi. Samichinam Bhagini. Samichinam. So this is esha suchi. So next, Sri Krishna Mahodaya. Pramila Bhagini, can you mute yourself?
Hari Om Mahodaya.
So, Sri Krishna Mahodaya, are you there? Yes. Okay.
Hari Om Mahodaya.
Can you please tell this? What is this?
Eshaha kaha, eshaha makaraha.
So is this correct? I am not able to hear even Sri Krishna Mahodaya's voice. Anybody? This is eshaha makaraha. This is eshaha makaraha. Samichinam. This is eshaha makaraha. This is akaranta pumlinga shabdah. Makaraha is akaranta pumlinga shabdah. Correct? Okay. Sri Krishna Mahodaya, what is the next one? This is ending in am.
Tat lokayanam. Tat lokayanam.
Yes. Tat lokayanam. Samichinam Mahodaya. Lokayanam. Samichinam Sri Krishna Mahodaya. What is this one, Mahodaya? How would we point this?
Sammarjani Strilingaha. Esha Sammarjani.
This is Ikaranta Strilinga Shabdaha. And this would be Esha. Esha Sammarjani. Samichinam. Esha Sammarjani. Samichinam Sri Krishna Mahodaya. Esha Sammarjani. Agre. Sri Krishna Mahodaya, what would this be?
Esha Lakshmi. Esha Lakshmi.
Esha. Yes, this is also Esha. Esha Lakshmihi. Esha Lakshmihi. Samichinam Sri Krishna Mahodaya. This is also Esha Lakshmihi. And this is Ikaranta Strilinga Shabdah. And one observation here is that we have aha. Generally, or we thought that aha is generally considered to be Pumlinga Shabdah. Akaranta Pumlinga. But it is not the case. This is an exception. We have an Ikaranta and it is ending with Visargaha. It is ending with Visargaha, two dots. Visargaha means two dots, Lakshmihi. So this word is basically Ikaranta Strilinga Shabda. Ikaranta Strilinga Shabda. Please note, even though we have Visargaha, it is not the Pumlinga Shabda. Agree. Sri Krishna Mahodaya, what is this?
Tat Patram. Tat Patram.
Yes, this is Tat Patram. This is Tat Patram. Samichinam Mahodaya, Sri Krishna Mahodaya, this is correct. Tat Patram. So this is again am. And this we are having a. Am. A. M. And ma is not complete. Ma is not complete. It is only coming am. It is coming like that. The sound is coming like am. So this is Akaranta Napunsaka Linga Shabdaha. Akaranta Napunsaka Linga Shabdaha. patram is the akaranta napumsaka shabda napumsaka linga shabda and we are saying this is tat patram tat patram samichinam shri krishna mohoday dhanyavadah
dhanyavadah
so we have how do we spell sammarjani so sam marjani that is ni is pronounced for longer duration because we have the upper e or the later e or the dheergha e that is what we have there so it is sammarjani yes sammarjani as you have written in english that is the spelling for it sujana bhagini that is the right spelling okay next we have sujana bhagini so sujana bhagini can you yes. take this up now next five words and how are they pointed out is it yeshah yesha tat etat सः
येषः येषः खः येषः रामः
सो दिस् इस् येषः रामः दिस् इस् येषः रामः समीचीनं भगिनि येषः रामः नेक्स्ट् वन् भगिनि
येषः कः येषः पादः हलो वी केन्ट् हियर् यु
येषः दिस् इस् येषः अगेन् करेक्ट् सो येषः पादः पादः इत्युक्ते पीट् पादः इत्युक्ते पीट् समीचीनं भगिनि नेक्स्ट् वन् दिस् वन् भगिनि
एषः नो एतत् हयोहिमम्
दिस् इस् एतत् आर् तत् प्लीस् नोट् हियर् दिस् इस् एतत् आर् तत् वि आर् पायिण्टिङ्ग् औट् वित् smaller hand just from the wrist to the finger we are not using the arm to point out is it yetat or tat
yetat
so this would be yetat correct yetat this would be yetat payohimam yetat payohimam samichinam sujana bhagini yetat payohinam and this is ending with am so this is na This is akaranta napunsaka linga shabdah. Akaranta napunsaka linga shabdah. This would be yetat. This would be yetat. Samichinam mahodaya. So this is a nearer object and this would be used yetat and our name is payohimam. Payohimam ityukte ice cream. Yetat payohimam. Yetat payohimam. Samichinam. Agre bhagini.
सः देवालयः
सो इस् दिस् करेक्ट् एव्रिबडि सुजना भगिनी वुड् हव् सेड् इस् इट् तत् आर् सः
सः देवालयः
बिकास् वी हाव् द लाङ्गर् हेण्ड् दिस् वुड् बिकम् सः And the object here is temple and in Sanskrit it is called Devalayah. Devalayah. So, Saha Devalayah. Why we have used Saha? Because
it's
the word here, the word is Devalayah. And how is it ending? Here is Akaranta Pumlinga Shabdaha. It is a masculine gender. देवालयः इस् अ मास्कुलैन् जेण्डर् इट् इस् अकारान्त पुंलिङ्गशब्दः सः देवालयः सः देवालयः एण्ड् हेन्स् वि आर् यूसिङ्ग् वित् सः एण्ड् हेन्स् दिस् वर्ड् इस् आल्सो अकारान्त पुंलिङ्गशब्दः सः देवालयः समीचीनं भगिनि ओके सो नेक्स्ट् वन् भगिनि
एषः
This is Saraswati. So, this would be Yesha Saraswati. Correct, Bhagini. This is Yesha Saraswati. This is Yesha Saraswati. Ikaranta Trilinga Shabdaha. Ikaranta Trilinga Shabdaha. Samichinam, Bhagini. Dhanyavadaha. So, next we will have Govindarajan Mahodaya. Govindarajan Mahodaya. Are you there? One second. Yes, Mahodaya, Shubham Mahodaya, but the problem is I am not able to hear none of your voices. So that is the problem. So I am somehow today continuously unable to hear anybody's voice. I am totally relying on the chat today to continue the session. So that is one handicap today. I'm not sure why free conference call is not rendering the voice of the participants. So somehow I'm relying all the responses that I'm getting from the chat. Correct, correct. But he should do it ideally, but I am not able to hear the voice, right? So that is why I am somehow prompting today. If correct, you are right, Mahodaya. But what is the problem is I am not knowing what is happening from the participant side, correct? So if I know what is happening, then probably I would have given the control. I do not know what is happening. It is kind of I am deaf today. Only thing is that I am able to read the chat messages, and from there I am trying to address what is happening in the session. So not probably I have to check the settings again with respect to conference call. I'm not sure what has happened, or I have to uninstall and install the app, which will take some time. I do not want to disturb the class timing. So that is why I am not doing it. So we'll continue this way. I think it is helping everybody because you are able to hear others' voice. That is not a problem anyway. Yes. So because you are able to hear others' voice, we are fine today. So let us do that. How it goes with the recording, probably I'll do it after the session. Okay. So that's the plan for today. So let's get started. So we have Govindarajan Mahodaya. He said he's not there. Okay. So Tangam Bhagini, Dr. Tangam Bhagini, are you there? Tangam Bhagini, if you are there, please unmute yourself. Bhagini, please excuse me, I'm not able to hear anybody's voice. So I will be prompting in between also. So next 5 slides is your chance. Please try to address the question and answer it. What is this? How are we addressing it? And also, what is the gender of the word? These 3 things, please address in this slide for the next 5 slides. Starting from this slide.
Saha balakaha.
So I'll be changing it, and I'll be observing the answers in the chat for the correctness. Okay.
Saha kaha, saha balakaha.
Okay, Bhagini. So please start.
Saha kaha, saha balakaha, akarantaga pumlinga shaptaha.
Okay, Bhagini finished the first one. Okay, Bhagini. So, Bhagini, probably it is Saha Balakaha. Saha because we are using the long arm. Sahakaha, Saha Balakaha. Sahakaha, Saha Balakaha. The question is Sahakaha. Answer is Saha Balakaha. What is the verb Balakaha?
the word is ending with aha, so it is akaranta pumlinga shabda. Okay Bhagini, so next this one Bhagini.
Saha kaha, saha parvatah. आकारान्तः पुंलिङ्गशब्दः
अच्छा पर्वतः डन् सः कः सः पर्वतः एण्ड् अकारान्त पुंलिङ्गशब्दः समीचीनं भगिनि ओके भगिनि नेक्स्ट् वन् भगिनि
तत् किं तत् विमानम् अकारान्तः नपुंसकशब्दः
ओके भगिनी विमानम् इस् आल्सो डन् तत् किं तत् विमानं विमानम् अकारान्त नपुंसकलिङ्गशब्दः समीचीनं भगिनी अग्रे
एषः कः एषः सूर्यः अकारान्तः पुंलिङ्गशब्दः
ओके सूर्यः आल्सो डन् एषः कः एषः सूर्यः सूर्यः इस् अकारान्त पुंलिङ्गशब्दः समीचीनं भगिनि अग्रे
एतत् किम् एतत् व्याकरणम् अकारान्तः नपुंसकलिङ्गशब्दः
ओके थेङ्क् यु मङ्गै भगिनी सो तत् किं तत् व्याकरणं सो इट् इस् सीसनिङ्ग् सो दिस् इस् नपुंसकलिङ्गशब्दः दिस् इस् अकारान्त नपुंसकलिङ्गशब्दः धन्यवादः तङ्गं भगिनि गाट् आल् दि आन्सर्स् फ्रोम् द चाट् एस् वेल् धन्यवादः सो नेक्स्ट् वि विल् हाव् शिवकुमार् महोदय शिवकुमार् महोदय सो प्लीस् I'm not able to hear anybody's voice, so please do it. First one is the question, second one is the answer, and third one is the shabda. What is it? So Tangam Bhagini, can you please mute yourself if you're done?
Shauchalayaha akaranta linga shabda.
ओके ओके मङ्गै भगिनि इट्स् डन् सो सः कः सः शौचालयः शौचालयः इत्युक्ते टाय्लेट् शौचालयः अकारान्त पुंलिङ्गशब्दः समीचीनम् अग्रे
एषः कः एषः कुक्कुरः अकारान्त पुंलिङ्गशब्दः
ओके कुकुरः आल्सो डन् सो एषः कः एषः शुनकः एषः कुकुरः शुनकः अथवा कुकुरः इत्युक्ते डाग् अकारान्त पुंलिङ्गशब्दः अकारान्त पुंलिङ्गशब्दः अग्रे
तत् किं तत् पुष्पम् अकारान्त नपुंसकलिङ्गः नपुंसकलिङ्गं
पुष्पम् ओके समीचीनं मङ्गै भगिनि सो तत् किं तत् पुष्पं पुष्पम् इत्युक्ते फ्लव अकारान्त नपुंसकलिङ्गशब्दः पुष्पम् इत्युक्ते फ्लव अकारान्त नपुंसकलिङ्गशब्दः समीचीनं महोदय अग्रे
शाखा सा नारङ्गफलम् अकारान्त पुल्लिङ्गशब्दः
तत् किं
तत् किम् ओ दिस् इस्
यस् दिस् इस्
नपुंसकलिङ्ग
दिस् इस् तत् दिस् इस् तत् महोदय बिकास् वि हाव् हियर् नारङ्गफलं फलम् इस् अम् सो दिस् इस् तत् नाट् सः आर् सा दिस् विल् बिकम् नकारान्त sorry, akaranta napunsaka linga shabdaha, and this is neuter gender. Naranga phalam is neuter gender, ityukte orange. So this will become tat naranga phalam. Okay, agre. This mahodaya, Shivakumar mahodaya. Shivakumar mahodaya, can't hear you. Are you there?
Hello. Now ji, hello. Hello.
Yeah, now we can hear you. Yes.
Okay. Yeah, okay. Mahodaya, please.
Saha astaha. Akaranda pullinga shabdaha.
So Mangai Bhagni, Tangam Bhagni, is this done? Okay. So it is Hastaha. Saha Hastaha Samichinam. So this is Akaranta Pumlinga Shabda. Akaranta Pumlinga Shabda. Samichinam Mahodaya. So next is Usha Bhagni. Usha Bhagni, can you please unmute yourself? So next five is your turn, Bhagni. For a moment. Yeah, so let me and then come back to the okay. So Usha Bhagni, I'll come back to you. Looks like there is some noise with the microphone. Okay, Ranjan Bhagni, are you there? Ranjana Swain Bhagni. Ranjana Swain Bhagni, is she available? Okay, looks like Ranjana Swain Bhagni is available. Bhagni, can you please take the next five question, answer, and the word? Etat kim, yes, etat kim. So this will be etat kim, etat nagaram. Nagaram ityukte city. Nagaram ityukte city.
Etat nagaram.
Etat nagaram. Nagaram ityukte city. Okay, Mahodaya. This is done, Ravindra Mahodaya. Okay. So next one, Bhagini, can you take this one also? Okay, let me give the word.
सा का सा दन्तकुचः
डन् ओके ओके महोदय ओके भगिनी सः कः सः दन्तकूर्चः दन्तकूर्चः इत्युक्ते टूथ्ब्रश् अकारान्तपुंलिङ्गशब्दः ओके नेक्स्ट् वन् भगिनि
एषा कुश्चिका
डन् ओके भगिनि एषा का एषा कुञ्चिका कुञ्चिका इत्युक्ते की आकारान्त स्त्रीलिङ्गशब्दः ओके नेक्स्ट् वन् भगिनि
तत् किं तत् दन्तफेनकम्
डन् ओके सो एतत् किम् एतत् दन्तफेनकं दन्तफेनकम् इत्युक्ते टूत्पेस्ट् अकारान्त नपुंसकलिङ्गशब्दः समीचीनम् अग्रे भगिनि
एतत् किं एषा का एषा आरक्षकः
डन् ओके भगिनि सो एषः कः एषः आरक्षः आरक्षकः आरक्षकः इत्युक्ते पोलिस्मेन् अकारान्त पुंलिङ्गशब्दः धन्यवादः रञ्जना भगिनी सो प्लीज् म्यूट् युर् सेल्फ् नेक्स्ट् वील् गो टु मञ्जुश्री भगिनी मञ्जुश्री भगिनी आर् यु अवेलेबल् नेक्स्ट् फैव् प्लीस् डु इट्
सः कः सः कन्दुकः अकारान्त पुल्लिङ्गशब्दः
बाल्डन् ओके भगिनि सो सः कः सः कन्दुकः कन्दुकः इत्युक्ते बाल् अकारान्त पुंलिङ्गशब्दः ओके नेक्स्ट् वन्
तत् किं तत् कदलीफलम् अकारान्त नपुंसकलिङ्गशब्दः
बनाना डन् ओके तत् किं तत् कदलीफलम् इत्युक्ते बनाना अकारान्त नपुंसकलिङ्गशब्दः ओके भगिनि ओके नेक्स्ट् वन् भगिनि
तत् किं तत् पुस्तकम् अकारान्त नपुंसकलिङ्गशब्दः
ओके भगिनि तत् किं तत् पुस्तकं पुस्तकम् इत्युक्ते बुक् अकारान्त नपुंसकलिङ्गशब्दः समीचीनं भगिनि नेक्स्ट् वन्
तत् एतत् किम् एतत् वातायनम् अकारान्त नपुंसकलिङ्गशब्दः
विण्डो डन् ओके एतत् किम् एतत् वातायनं वातायनम् इत्युक्ते विण्डो अकारान्त नपुंसकलिङ्गशब्दः अग्रे भगिनि
सा का सा शय्या आकारान्त स्त्रीलिङ्गशब्दः
शय्या ओके भगिनि दट् इस् आल्सो डन् सा का सा शय्या शय्या इत्युक्ते क्वार्टर् बेड् आकारान्त स्त्रीलिङ्गशब्दः शय्या आकारान्त नट् अकारान्त आकारान्त स्त्रीलिङ्गशब्दः समीचीनं भगिनि समीचीनं मञ्जुश्री भगिनि धन्यवादः बालसुब्रह्मण्यं महोदय नेक्स्ट् फैव् क्वश्चन् आन्सर् एण्ड् अ वर्ड् So, Manjushri Bhagini, please mute yourself. Balasubramanian Mahodaya, please unmute yourself.
Yetat kim, yetat amrapalam. Akaranta nahu, napum salinga sabdaha.
Okay, Bhagini. सो तत् किम् अरे एतत् किम् एतत् आम्रफलम् आम्रफलम् इत्युक्ते म्याङ्गो आम्रफलम् अण्ड् अम् सो अकारान्त नपुंसकलिङ्गशब्दः समीचीनं. सो बालसुब्रह्मण्यं महोदय नेक्स्ट् वन्. सो नेक्स्ट् फोर् स्लैड्स् आर् देर्. प्लीस् कण्टिन्यू फार् द नेक्स्ट् फोर् स्लैड्.
सा का? सा मापिका. अकारान्त अकारान्त स्त्रीलिङ्गशब्दः.
रूलर् डन्. ओके. सा का? सा मापिका. मापिका इत्युक्ते रूलर् स्केल्. आकारान्त स्त्रीलिङ्गशब्दः. आकारान्त आकारान्त स्त्रीलिङ्गशब्दः. अग्रे
एतत् एषा का? एषा दर्पणः. अकारान्त पुंलिङ्गशब्दः.
ओके भगिनी. सो एषः कः? एषः दर्पणः. दर्पणः इत्युक्ते मिर्रर्.
मिर्रर्
अकारान्त पुंलिङ्गशब्दः. समीचीनं महोदय. अग्रे
सः कः? सः दन्तः. अकारान्त पुंलिङ्गशब्दः.
टूद्दन्. ओके भगिनि. सः कः? सः दन्तः. दन्तः इत्युक्ते टूत्. सः कः? सः दन्तः. अकारान्त पुंलिङ्गशब्दः.
एतत् किम्? एतत् पत्रम्. अग्रे पर्णम्. अग्रे दलम्. अकारान्तः नपुंसलिङ्गशब्दः.
पत्रं डन्. ओके भगिनि. सो एतत् किम्? एतत् पत्रम् अथवा एतत् पर्णम् अथवा एतत् दलम्. आल् रेफर् टु लीफ्. समीचीनं महोदय. समीचीनं बालसुब्रह्मण्यं महोदय. धन्यवादः. All of them are napunsaka linga shabdah, neuter gender. Akaranta napunsaka linga shabdah. Samichina moja, dhanyavadah. Next, so we will have for the next slides, Priyarama Bhagini. Priyarama Bhagini.
Eshaha kaha, eshaha samudraha. समुद्रः इत्युक्ते सि.
प्रियरं भगिनि. ओके लेट् मी चेक् दिस्. समुद्रः डन्. ओके. एषः कः? एषः समुद्रः. समुद्रः इत्युक्ते ओशन् पुंलिङ्गः. ओके.
एषा का? एषा शिला. शिला इत्युक्ते राक्.
राक् डन्. ओके. एषा का? एषा शिला. शिला इत्युक्ते राक्, बोल्डर्. शिला आकारान्त स्त्रीलिङ्गशब्दः. समीचीनम्. अग्रे भगिनी.
एषा का? एषा शाटिका. शाटिका इत्युक्ते सारी.
शाटिका. ओके. ओके भगिनि. एषा एषा शाटिका. शाटिका इत्युक्ते सारी. आकारान्त पुंलिङ्ग स्त्रीलिङ्गशब्दः. आकारान्त स्त्रीलिङ्गशब्दः शाटिका. अग्रे
भगिनी. एषा का? एषा दूरवाणी. इकारान्त स्त्रीलिङ्ग शब्दः.
फोन् डन्. ओके भगिनि. एषा का? एषा दूरवाणी इत्युक्ते टेलिफोन् एण्ड् हौ इस् द वर्ड् ईकारान्त स्त्रीलिङ्गशब्दः ईकारान्त स्त्रीलिङ्गशब्दः अग्रे भगिनि
एषः कः एषः व्याघ्रः व्याघ्रः आकारान्त पुंलिङ्गशब्दः
टैगर् डान् ओके भगिनि एषः कः एषः व्याघ्रः व्याघ्रः इत्युक्ते टैगर् एण्ड् हौ इस् द वर्ड् अह अकारान्त पुंलिङ्गशब्दः अकारान्त पुंलिङ्गशब्दः ओके भगिनि धन्यवादः भगिनि समीचीनं नेक्स्ट् इस् इन्दिरा भगिनी सो प्रियरामा भगिनी प्लीज् म्यूट् युर् सेल् एण्ड् इन्दिरा भगिनी प्लीज् अन्म्यूट् युर् सेल्
ओके
सः कः सः बालिका आकारान्त स्त्रीलिङ्गशब्दः
बालिका डन् ओके एषा का एषा बालिका आकारान्त स्त्रीलिङ्गशब्दः बालिका इत्युक्ते गर्ल्
लेखनी सः कः सः लेखिनी ईकारान्त स्त्रीलिङ्गशब्दः
ओके पेन् इस् डन् एषा का एषा लेखनी लेखनी इत्युक्ते पेन् ईकारान्त स्त्रीलिङ्गशब्दः yes it was sa balika right as usha bhagini pointed out it is sa balika I told esha balika it is sa balika this correct it is sa balika sa ka sa balika
esha
okay bhagini
esha
likhi that and the next one bhagini
sa chamasah sa ka sa chamasah no sah kah सः
चमसः
सः चमसः चमसः आकारान्त पुल्लिङ्ग् शब्दः
पूण्डन् ओके भगिनि सः कः सः चमसः चमसः इत्युक्ते स्पून् अकारान्त पुंलिङ्गशब्दः अह दिस् इस् अह रैट् अकारान्त पुंलिङ्गशब्दः
उदग्रहग्रहग्रयाणं नपुं अकारान्त नपुंसकलिङ्ग तत् किं तत् उदग्रहग्रयाणं
ओके भगिनि हेलिकाप्टर् इस् डन् तत् किं तत् उदग्रयानम् 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 इत्युक्ते हेलिकाप्टर् एण्ड् दिस् इस् अम् अकारान्त नपुंसकलिङ्गशब्दः
कूर्मः अकारान्त पुल्लिङ्गशब्दः सः कः सः कूर्मः
कूर्मः ओके भगिनि सः कः सः कूर्मः कूर्मः इत्युक्ते टार्टोइस् टर्टल् अकारान्त पुंलिङ्गशब्दः अकारान्त पुंलिङ्गशब्दः समीचीनं भगिनि सो धन्यवादः इन्दिरा भगिनी धन्यवादः नेक्स्ट् वी हेव् राघवन् महोदय सो इन्दिरा भगिनी प्लीज़् म्यूट् युवर् सेल्फ़् राघवन् महोदय प्लीज़् अन्म्यूट् युवर् सेल्फ़् राघवन् महोदय आर् यु देर् cannot hear Raghavan Mahodaya. Raghavan Mahodaya left or is he there? Okay, he's not there in the participant list. Okay, so we will continue with, is Triveni Bhagni there? Triveni Bhagni? Yes, Triveni Bhagni is there in the participant list. Triveni Bhagni, can you please unmute yourself?
Yes. Etat kim, etat sanganakam. Akaranta srilinga shabdaha. Are you able to hear me?
Akaranta napumsalinga.
Napumsalinga shabdam.
Yes, yeah. This is not strilingam. This is napumsakalingam, Bhagini. So this is tat kim, tat sanganakam. Sanganakam ityukte computer. Sanganakam means computer. Ityukte computer. Sanganakam ityukte computer. And this is am, ending in am. Am ityukte, we are having ma, am. So akaranta napunsakalinga shabda. Akaranta napunsakalinga shabda. Sanganakam. Okay, so that's why it is napunsakalinga shabda. Okay, Bhagini. So next one, Bhagini, Triveni Bhagini. So
saha kaha, saha shikshakaha, akaranta pumlinga shabda.
Teacher. Okay. Saha kaha, saha shikshakaha, aha, that's why akaranta pumlinga shabda. Shikshaka ityukte teacher. Agre.
Saha kaha, saha deepaha, akaranta pumlinga
shabda. Madam, yeshaka kaha.
Oh, yeshaha kaha, yeshaha deepaha, akaranta pumlinga shabda.
Napumsakalinga.
Deepahada. Okay. Yeshaha kaha, yeshaha deepaha. Deepaha ityukte lamp. Akaranta pumlinga shabdaha. Akaranta pumlinga shabdaha. Aha. Okay. Next one, Bhagini.
Yetat kim, yetat gruham. Akarantaha napumsakalingam shabdaha.
Gruham done. Okay. Etat kim, etat gruham. Gruham ityukte house. And this is akaranta napunsaka linga shabdaha. Agre Bhagini.
Tat kim, tat upanetram. Akaranta napunsaka linga shabdaha.
Glasses. Okay. Tat kim, tat upanetram. Upanetram ityukte glasses. Tat kim, tat upanetram. Upanetram ityukte glasses. And this is akaranta napunsakalinga shabda. Samichinam Bhagini. Dhanyavada Triveni Bhagini. So, next we will have Swarnalakshmi Bhagini. Are you available, Bhagini?
Yes, sir.
So Triveni Bhagini, please mute yourself, and Swarnalakshmi Bhagini, please unmute yourself.
Okay, sir.
Okay, you are there, Bhagini?
Yes, sir. Etat kim, etat seva palam. Akaranda napumsakalinga shabdaha. Neuter gender.
Apple done. Okay, Bhagini. Tat kim, tat seva phalam. Seva phalam ityukte apple. Napunsakalinga shabdah. This is tat.
Tat kim. Tat kim. Tat seva phalam. सा एषा का एषा चिक्चिका सो इट आकारान्त स्त्रीलिङ्गशब्दः आकारान्त स्त्रीलिङ्गशब्दः
ओके सो टीचर् डन् एषा का एषा शिक्षिका शिक्षिका सो आकारान्त स्त्रीलिङ्गशब्दः आकारान्त स्त्रीलिङ्गशब्दः
लिङ्गशब्दः एषः कः एषः गजः अकारान्त पुंलिङ्गशब्दः
अपुंसकलिङ्ग
गजः गजः
पुंलिङ्गशब्दः
एण्ड् दिस् इस् अह गजः सो अकारान्त
पुंलिङ्गशब्दः एतत् किम् एतत् ऊरुकम् अकारान्त नपुंसकलिङ्गशब्दः
ओके ऊरुकं डन् सो एतत् किम् एतत् ऊरुकम् ऊरुकम् इत्युक्ते ट्रौसर्स् अण्ड् अकारान्त नपुंसकलिङ्गशब्दः
शब्दः
अग्रे भगिनि
एतत् किम् एतत् द्राक्षफलम् अकारान्त नपुंसकलिङ्गशब्दः द्राक्षफलम् अकारान्त
नपुंसकलिङ्गशब्दः एतत् किम् एतत् द्राक्षफलं फलं द्राक्षफलं द्राक्षफलम् इत्युक्ते ग्रेप्स्
नपुंसकलिङ्गशब्दः
धन्यवादः भगिनी धन्यवादः स्वर्णलक्ष्मी भगिनी नेक्स्ट् वील् हेव् माधवी भगिनी सो स्वर्णलक्ष्मी भगिनी प्लीस् म्यूट् युर् सेल्फ् अण्ड् माधवी भगिनी अन्म्यूट् युर् सेल्फ्
एषा
माधवी भगिनी माधवी भगिनी आर् यु देर् भगिनी ओके माधवी भगिनी लुक्स् लैक् युवर् बेक्ग्रौण्ड् इस् गिविङ्ग् लाट् आफ् नाय्स् केन् यु आल्सो प्लीस् रिपीट् माधवी भगिनी
अकारान्तक पुल्लिङ्गशब्दः
ओके इट् इस् वेरि नाय्सि सो lot of disturbance as well so yeshah kah yeshah vaidyah
vaidyah
vaidyah ityukte doctor and how is the word aha akaranta pumlinga shabda vaidyah akaranta pumlinga shabda okay next one
satyam satyam akaran
वाटर् टन् ओके तत् किं तत् जलं जलम् इत्युक्ते वाटर् अण्ड् इस् अम् अकारान्त नपुंसकलिङ्गशब्दः नेक्स्ट् वन् भगिनि
सः का सः सा सोरि सा का सा वैद्या अकारान्तक श्रीलिङ्ग स्त्रीलिङ्गशब्दः
वैद्य आल्सो डन् ओके भगिनि सा का सा वैद्या आकारान्त स्त्रीलिङ्गशब्दः वैद्या आकारान्त स्त्रीलिङ्गशब्दः अग्रे भगिनि
सा का सा वृद्धाः वृद्धा
ओल्ड् लेडि अस्ति ओके सा का सा वृद्धा वृद्धा इत्युक्ते ओल्ड् लेडि एल्डर्लि लेडि वृद्धा सो आकारान्त स्त्रीलिङ्गशब्दः आकारान्त स्त्रीलिङ्गशब्दः ओके सो माधवी भगिनी भगिनी धन्यवादः रिक्वेस्टिङ्ग् यु टु म्यूट् युर् सेल्फ् नेक्स्ट् वन् इस् नौ निष्ठा भगिनी टर्न् निष्ठा भगिनी नाट् शोर् इफ् इस् देर् आर् नाट् देर् एण्ड् शील् प्राबब्लि ओके निष्ठा भगिनी इस् नाट् अवैलबल् सो इट् इस् मङ्गाय् भगिनी नौ मङ्गाय् भगिनी
जलनालिका आकारान्त पुंलिङ्गशब्दः
स्त्रीलिङ्ग
स्त्रीलिङ्ग सारी स्त्रीलिङ्गशब्दः
जलनालिका डन् ओके भगिनि एषा का एषा जलनालिका जलनालिका इत्युक्ते
टेङ्क्
पैप्
वाटर् टेङ्क्
वाटर् पैप् वाटर् पैप् देन् वि हाव् आकारान्त स्त्रीलिङ्गशब्दः
तत् किं तत् चरणम् आकारान्तः नपुंसकलिङ्गशब्दः
ओके डन् ओके तत् किं तत् चरणं चरणम् इत्युक्ते आङ्गल् टु द फीट् पार्ट् इस् काल्ड् अस् चरणम् अण्ड् दिस् इस् अम् सो अकारान्त नपुंसकलिङ्गशब्दः चरणं तत् किम् अग्रे भगिनि
एषः कः एषः प्रोष्टः अकारान्त पुंलिङ्गशब्दः
एषः प्रकोष्ठः
प्रकोष्ठः
डन् ओके एषः कः एषः प्रकोष्ठः
प्रकोष्ठः
प्रकोष्ठः इत्युक्ते रूम् अण्ड् अह दिस् इस् अकारान्त पुंलिङ्गशब्दः अकारान्त पुंलिङ्गशब्दः प्रकोष्ठः अग्रे भगिनि
तत् किं तत् युतकम् अकारान्त नपुंसकलिङ्ग
सो इट् इस् आल्सो डन् सो तत् किं तत् युतकं युतकम् इत्युक्ते शर्ट् अम् अकारान्त नपुंसकलिङ्गशब्दः समीचीनं भगिनि अग्रे
एषः कः एषः घटः अकारान्त पुंलिङ्गशब्दः
दिस् इस् आल्सो डन् ओके भगिनि एषः कः एषः घटः घटः इत्युक्ते पाट् अकारान्त पुंलिङ्गशब्दः अकारान्त पुंलिङ्गशब्दः ओके अग्रे भगिनि
तत् किं तत् गङ्खटं गङ्खटम् इत्युक्ते कोम् कोम् अकारान्त नपुंसकलिङ्गशब्दः
समीचीनमस्ति तत् किं तत् कङ्कतं कङ्कतम् इत्युक्ते कोम् अण्ड् अकारान्त नपुंसकलिङ्गशब्दः अकारान्त नपुंसकलिङ्गशब्दः तत् किम् ओके मङ्गाय् भगिनि धन्यवादः सो वि विल् नेक्स्ट् कण्टिन्यू वित् के स्वामी स्वामी महोदय के स्वामी महोदय आर् यु अवैलबल् Okay, Swami Mohd is not responding. Okay. So next one we have Vandangar Bhagni. Okay, you said you're not going to, you're going to just listen today. Okay, fine, Bhagni. Then we have Rabindra Mohdya. Rabindra Mohdya.
Yes, sir. Hello. Can you hear?
Mahodaya, we are able to hear you. So please continue the question, answer, and the word. How are we going to describe the word?
Sa ka, sa panchalika, akaranta striling.
Done. Okay, Mahodaya. So sa ka, sa panchalika, panchalika ityukte toy or a toy, and this is akaranta strilinga shabdaha. Agre. Okay, so agre mahodaya.
Etat kem etat vanam akaranta napusaklingam.
For is done. Oh. Okay mahodaya. Etat kem etat vanam akaranta napusaklinga shabdaha. Vanam ityukte forest.
Sa ka, sa angani, ikaranta striling shabda.
Pencil also done, Bhagini. Okay. Sa ka, sa ankani, ankani, ikaranta striling shabda. Ankani is yukte pencil. Samichinam Mahodaya. Agree?
Sa ka, esha ka, esha sharkara. Akaranta strilinga shabda.
Sugar also done. So this is yesha ka, yesha sharkara, sharkara ityukte sugar, akaranta strilinga shabda. Oh, kemichinam, shamantam. And what is this, Mahodaya?
Saha ka, saha vidyalaya, akaranta pullinga shabda.
School also done. Okay. Both Samichinam Mahodaya. So this is Sahakaha Saha Vidyalayaha. Vidyalayaha ityukte school. Akaranta Pumlinga Shabdaha. Okay. So next we will. Suchitra Bhagini, are you available?
Mahodaya, I am available. Murugan.
Suchitra Bhagini, are you there? So you
Murugan sir, please put it in chat, otherwise he can't hear you.
Connected. Okay, Murugan Mahodaya is available. Okay, Murugan Mahodaya. So okay, next to five, please continue. For the next to five, please continue, Mahodaya.
Dhanyavaad. Sa ka sa durgha akarandaka feeling shabdaka.
Durga done. Okay, Bhagini. So sa ka sa durga. Durga ityukte goddesses Durga here. And name. And this is akaranta strilinga shabda. Agre Bhagini, Agre Mahodaya, Kshamyatam, Agne Mahodaya.
Sha ka, sha Parvati. Akaranaga, Srin Sabdaga, Srinaga Sabdaga.
Ikaranaga.
Sorry, Ikaranaga, Srinaga.
Okay. It is Ikaranta, correct. Yes, as it has been put in the chat, Murugan Mahodaya. This is Saka, that is correct. And also that is Sa Parvati. But this is Ikaranta Strilinga Shabda. So as the discussion is going on in the chat, it is Ikaranta Strilinga Shabda. Chiram Maudya, Ikaranta Strilinga. Bhirga Ikaranta. Okay. Akre Maudya. Murugan Mahodaya, looks like we are not able to hear you. Are you there, Mahodaya? Okay, you are not muted though, but your noise is looks like the entire class is not able to hear your voice. Okay. Looks like it's connecting back. Yes, it looks like for some reason it got disconnected. Suchita Bhagni is also not there. Okay, Suchita. Pramila Bhagni then. We'll again go back to Pramila Bhagni. Pramila
Bhagni. Murugan sir, type a message. You are available.
Okay, Murugan Mahodaya is available. Okay, Bhagni. Murugan Mahodaya.
I couldn't get twice, sir, Mahodaya. Okay, I'll continue. Tat Bhojanam, Tat Kim, Tat Bhojanam, Akarandaka Navumsakalingam.
Food done. Yes. Okay, Bhagni. Tat Kim, Tat Bhojanam. Bhojanam ityukte, food. And this is Akaranta Napunsakalinga Shabdaha. Samichinam Mahodaya. Agree.
Varam.
Tat Yetat Kim. Yetat Kim. Yetat Dwaram. Door.
Door.
Akaranta Napunsakalinga Shabdaha.
Door is done, Bhagni. Okay. Yetat Kim, Yetat Dwaram. Dwaram is took a door. And this is Akaranta Napunsakalinga Shabdaha. Agree, Mahodaya. Agree, Mahodaya.
Lata.
Sha, ka, sha, lata. Akaranta is stealing the dagger. Stealing the dagger.
Murugan Mahodaya or Lakshmi Guwal is. Lata is also done. Okay. So this is Sa ka sa lata. Lata is a creeper. And this is Akaranta Strilinga
Shabda.
Akaranta Strilinga Shabda. Done. Okay, Bhagni. So, Saka, Sa, Lepana, Pattika.
Pattika.
Lepana, Pattika. Lepana means sticky and Pattika means, or it is actually gum. Lepana means gum. Pattika means is a wrapper or a sheet that can be put around. That is what is Pattika. Lepana, Pattika is sellotape here. This is Akaranta Strilinga Shabdaha. Akaranta Strilinga Shabdaha. Dhanyavada Murugan Mahodaya.
Dhanyavada Mahodaya.
Next, we will
have if Suchitra Bhagini is back. Suchitra Bhagini, are you there? Suchitra Bhagini, so can you please continue from here?
Hello. Saha ka, saha ghanti.
Clock done, okay. This is sa ka, sa ghati, ghati ityukte. Clock, and this is ikaranta strilinga shabdaha.
Saha kaha, saha chashaka, ikaranta, akaranta push, pulling.
Done. Okay, Bhagini. So this is चषकः चषकः इत्युक्ते ग्लास् अह अकारान्त पुंलिङ्गशब्दः ओके सुचिता भगिनी नेक्स्ट् वन्
ऐ एम् नाट् एबल् टु सी द स्क्रीन् तत् किं तत् द्विचक्रिका akaranta pulling no napunsakling sorry striling
striling is
striling saha
kaha sa dvichakrika
sorry
akaranta strilinga shabda
striling एषः कः एषः युवती अकारान्त स्त्रीलिङ्ग्
युवतिः इस् आल्सो डन् ओके भगिनी सो एषा का एषा युवतिः ह्रस्व इकारान्त स्त्रीलिङ्गशब्दः युवती इस् यङ्ग् गर्ल् युवतिः अग्रे भगिनि
एतत् किम् एतत् मिश्रिकं दिस् वन् इस् अकारान्त न्यूटजेण्डर्
मिश्रकं
मिश्रकम्
डन् ओके मङ्गाय भगिनि सो एतत् किम् एतत् मिश्रकं मिश्रकम् इत्युक्ते मिक्सर् एण्ड् दिस् इस् अकारान्त नपुंसकलिङ्गशब्दः अकारान्त नपुंसकलिङ्गशब्दः अग्रे भगिनि
सः कः सः नदी इकारान्त स्त्रीलिङ्ग् शब्दः
नदी ओके सा डन् ओके भगिनि सा का सा नदी ईकारान्त स्त्रीलिङ्गशब्दः धन्यवादः सुचित्रा भगिनी सो नेक्स्ट् उषा भगिनी इफ् युर् मैक् इस् अड्जस्टेड् प्लीस् ट्रै टु नेक्स्ट् स्लैड् उषा भगिनी your microphone and surrounding is a
unmute everybody. Okay, looks like there is a lot of noise with Usha Bhagni's microphone. So, okay, so we'll have Pramila Bhagni again. So, Pramila Bhagni, can you please continue from here? Pramila Bhagni, we are not able to hear. Is it done? Okay, let me see. Pramila Bhagni, okay, now you are unmuted.
Okay. Esha ka, Esha vanaraha.
So this is saha kaha, this is saha vanaraha.
Okay.
Vanara ityukte monkey.
Sir, it is okay. Nearby.
Is done. And this is akaranta pullinga shabdaha.
Sir, it is esha na sir.
Yeshaha kaha. This is not saha kaha, this is yeshaha kaha. Yeshaha vanaraha. Yeshaha vanaraha.
Okay. Yeshaha kaha. Yeshaha vrikshaha.
Shabda to Bhagini. So this is the Yeshaha Vrukshaha. Yeshaha kaha, Yeshaha Vrukshaha. And Vrukshaha is Akaranta Pumlinga Shabdaha.
Okay.
Aha, because it is Aha here, Akaranta Pumlinga Shabdaha. So please also mention the word when you come across next step. Next one, Bhagini.
Yeshaha kaha, Yeshaha Karadipaha. Akarantaka pulinga shabdaha. Karadipa means light.
Done, Bhagini? Okay. So this is again yeshaha karadipaha. This is also done. Akaranta pumlinga shabdaha. Okay.
Saha kaha, saha mandapaha. Akarantada pulinga shabdaha.
Mandapaha also done. So saha kaha, saha mandapaha. Mandapaha ityukte stage or place where rituals are performed, mandapaha. And this is akaranta pumlinga shabdaha. Agre Bhagini.
Tat kim, tat netram, tat nayanam. Akarantha napumsakalinga shabdaha.
Done, okay. I also done. So, tat kim, tat netram, tat nayanam. and this is am akaranta napunsaka linga shabdah netram nayanam ityukte I.
Saha kaha, saha ka, saha nidhanika, akarantada sri linga shabdaha.
Done. Okay, shelf is also done. Saha ka, saha nidhanika, nidhanika is yukte shelf, akaranta sri linga shabdaha.
Saha ka, saha petika. Aka akarantada sri linga shabdah.
Okay, petika also done. So sa ka sa petika, and this is akaranta sri linga shabdah, handbag or a box, petika, that is what it means. Agre bhagni.
Sa ka sa kartari ikarantha srilinga shabdah.
Kartari also saka sa kartari. Kartari ityukte scissors, and this is ikarantha srilinga shabdah. Next one, Bhagini. So we will finish off these slides and then we will stop the class today, because we started about 10 minutes late due to our voice audio problem. So sorry to disturb you, Pravina Bhagini. So please continue.
Oh, no problems. Saha kaha, saha rataha, akarantaga pulinga shabdaha. Rataha means chariot.
Also done. Saha kaha, saha rataha, chariot, akaranta pumlinga.
Pumlinga shabdaha.
Next one, Bhagini.
Etat kim, etat vajanam. Vajanam means fan. Etat kim.
Okay, this is also done, fan done. Etat kim, etat vajanam. Vajanam ityukte fan. Akaranta napunsakalinga shabdah. Agre Bhagini.
Tat kim, tat bhojanam, bhojana gruham. Akarantha napunsaka lingah.
Dining room also done. Okay. Tat kim tat bhojana gruham. Bhojana gruham ityukte dining room. Akaranta napunsakalinga shabdah.
Eshaha kaha, eshaha simhaha. Akarantaga pulinga shabdaha.
Okay. This is also done. Eshaha kaha, esha simha, simha ityukte lion. Akaranta pumlinga shabdaha.
Saha kaha, saha yutakaha. Akarantaga pulinga shabdaha.
So this is sahakaha,
saha,
yutaka. You have to say back, akaranta, umlinga shabdaha.
एषः कः एषा का एषा महिला अकारान्तः स्त्रीलिङ्गशब्दः
लेडी आल्सो सा का अकारान्तः स्त्रीलिङ्गशब्दः
तत् किं तत्
एतत् किम्
ओके एतत् किम् एतत् नङ्क नाणकं नाणकम् एतत् नाणकम् अकारान्तः नपुंसकलिङ्गशब्दः
कायिन् आल्सो डन् भगिनि ओके सो एतत् किम् एतत् नाणकं नाणकम् इत्युक्ते कायिन् एण्ड् दिस् इस् अकारान्त पुंलिङ्गशब्दः सो दिस् इस् अवर् ओके वि हव् स्टिल् मोर् फ्यू मोर् एण्ड् वि विल् फिनिश् आफ् दीस्
एषा का सा का सा उत्पीठिका अकारान्तः स्त्रीलिङ्गशब्दः
टेबल् आल्सो सा का सा उत्पीठिका उत्पीठिका इत्युक्ते टेबल् आकारान्त स्त्रीलिङ्गशब्दः
एषा का एषा जङ्गमा दूरवाणी जङ्गमा दूरवाणी ऐ एम् कन्फ्यूसिङ्ग् एक्चुलि
जङ्गमदूरवाणी मोबैल् फोन् एण्ड् दिस् इस् सोरि दिस् इस् नाट् एतत् दिस् इस् एषा का एषा जङ्गमदूरवाणी एण्ड् दिस् इस् ईकारान्त स्त्रीलिङ्गशब्दः अग्रे भगिनी and we'll stop here
yesha
hello
yesha yesha
yanaguna
main receive avala voice is repeating
yanagu harave illaya avuna adhiley paathunda adhiley varliya அந்த போயிட்டு நீங்க அதுல கிளிக் பண்ணி என்னோட பேர் இதா பாருங்க லிஸ்ட்ல
ஓகே திஸ் இஸ் ஆல்சோ டன்
என் பேர் இல்லையா
யா சோ 1 செகண்ட் லெட் அஸ்
சரி அப்ப அவுட்லுக்ல அனுப்புவார் நினைக்கிறேன் அது இன்னும் வரல எனக்கு
இஃப் திஸ் இஸ் கம்ப்ளீட்டட் லெட் மீ மியூட் எவரிபடி அண்ட் தென் வி வில் So, this is Yesha Mala Akaranta Strilinga Shabdaha. Mala itukte garland. Okay. So, Mangai Bhagini, thank you so much for giving me all the support. And also Shivakumar Mahodaya and Balasubramanyam Mahodaya. So, please do not leave. We will just talk about homework and then we will conclude the meeting because last 2 weeks we have not reviewed the homework. So what we are going to do this week is, this is the Pustakam, this is the Abhyasa Pustakam. So last week I said, please complete this part, right? Sa Balika Va Aam Sa Balika. Saha Balakaha Va Aam Saha Balakaha. So these things please complete and post it in our WhatsApp group. Now what is that you have to post? So please write the answers for this particular section on a paper. Use pen and paper and then take a screenshot of it, take a picture of it and then post it on WhatsApp.
So write it on a book or a paper using pen or pencil and take a picture of your answers and post it on our WhatsApp group. We will evaluate it there. We didn't get a chance to do or evaluate this or review this week. So what we'll do is, as a group, we will try to evaluate on our WhatsApp chat. That is the purpose of it. We will use that. And homework for this week is you need to complete this part, 1.2U, in Abhyasa Pustakam PDF. I will again post the PDF in WhatsApp group if you have missed it. And also this particular section, the next page. So page number 5, 4 and 5 are the homework for this week. That is, till Wednesday or Thursday, please try to complete this and post your answers on WhatsApp group. We will try to review, and I'll also try to post the answer there itself. That is the homework for this week. And we have not been reviewing it strictly. So this week on, we will review it strictly. Now we are a group that we have settled nicely on our WhatsApp group, and we are interacting well on the class as well. We will take this up, and the next thing is, next week we will have a test. The test will be most likely in online mode. So after the homework is done, we will also have a test. Okay, and the test will be in online mode only. That is what we will do. So please prepare all the chapters that we have done so far, all the PPTs that are there on the website that we have shared with you, sites.google.com, that is available in the email. Please also try to review all of that. We will try to have a test from that PPTs and all the homework that we have done, and that will be conducted in an online mode. Okay, so I'll share the link, and please, you would have to complete that. That is what is for our upcoming week, and next Sunday we will again continue again. Till then, namaskaraha. Any doubts, we will contact on WhatsApp or we will try to post it on email. Dhanyavadyas, sarvebhyah, and Shubharatri, Shubhadinam.